एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। सर्वकारेण धादिङ जनपदस्य बेनीघाट रोराङ ग्रामपालिकायाः पञ्चम वडा क्षेत्रवर्तिनी पैसीगौडा स्थाने पृथ्वीराज मार्गे पोखरा नगरात काष्ठमण्डपम् प्रति प्रस्थीयमानस्य बसयानस्य दुर्घटनायाः विषयम् अनुसन्धातुम् कार्यदलम् संघटितमस्ति। दुर्घटनायाम् एकोनविंशतिर्जनाः मृताः, पञ्चविंशतिजनाः आहताश्च वर्तन्ते। दुर्घटनायाः अनुसन्धानाय सहसचिवस्य नेतृत्वे पञ्चसदस्यात्मकम् कार्यदलम् संघटित तमस्तीति गृहमन्त्रालयस्य प्रवक्ता आनन्द काफ्ले असूचयत्। कार्यदलं बसयान दुर्घटनायाः विषयमनुसन्धाय प्रतिवेदनं प्रस्तोतुं निर्दिष्टमस्ति। दुर्घटनायां मृतकेषु सर्वेषां सत्यापनं सम्भूतमस्ति। आहतानां जनानां उद्धारं विधाय विभिन्नेषु चिकित्सालयेषु उपचारः जायमानोऽस्ति। आहतानां जनानां प्रभावपूर्णाय उपचाराय सम्बद्धै निकायै सह समन्वय जायमानोऽस्तीति प्रवक्ता काफ्ले असूचयत्। अत्रान्तरे गृहमन्त्री ओमप्रकाश अर्यालः बसयान दुर्घटनायाम् आहतानां जनानां स्वास्थ्यावस्थायाः विषयं जिज्ञासितवान् अस्ति। गृहमन्त्री अर्यालः कलंकीवर्तिनी नेशनल चिकित्सालयं, राष्ट्रिय ट्रामा सेन्टर इत्याख्यं चिकित्सालयं च प्राप्य आहतानाम् अवस्थायाः उपचारस्य च विषयं जिज्ञासितवान्। तदवसरे मन्त्री अर्यालः आहतानाम् उपचाराय प्राथमिकता प्रदत्ता अस्तीत्यतः द्वयोः चिकित्सालयोः चिकित्सकेभ्यः आहतानाम् उपचारे कथं विधामपि न्यूनतां न कर्तुम् अनुरुणत्। पोखरा नगरात् काष्ठमण्डपं प्रति प्रस्थीयमानं बसयानं रविवासरस्य रात्रौ बेनीघाट रोराङ ग्रामपालिकायाः भैसीगौडा स्थाने त्रिशूली नद्यां पतितम् आसीत्। निर्वाचन आयोगेन प्रतिनिधिसभा सदस्यानां निर्वाचनस्य प्रचारे प्रसारे च बालबालिकानां प्रयोगः निषिद्धोऽस्ति। निर्वाचन प्रचारे बालबालिकानां प्रयोगः नेपालस्य संविधानस्य बालबालिका सम्बद्धादि नियमस्य निर्वाचनाचार संहितायाश्च प्रतिकूलो भवतीत्यतः केनापि राजनीतिकदलेन राजनीतिक गतिविधौ निर्वाचन प्रचारे च बालबालिकानां प्रयोगं न कर्तुं न कारयितुं च अनुरुद्धमस्ति। विधेरनुसारेण प्रत्याभूतस्य बालबालिकानाम् अधिकारस्य संरक्षणं संवर्धनं च विधाय अधिकाराणाम् अनुगमनं पालनां च कर्तुं कारयितुं निर्वाचन आयोगेन संघीय सर्वकारस्य प्रदेश सर्वकाराणां स्थानीय स्तराणां च ध्यानाकर्षणं विहितमस्ति। अत्रान्तरे निर्वाचन आयोगेन प्राध्यापकानां शिक्षकाणां कर्मचारिणां च आसन्न निर्वाचने राजनीतिकदलानां प्रत्याशिनां च प्रचारे संलग्नता निषिद्धा अस्ति। कतिपयैः प्राध्यापकैः शिक्षकैः कर्मचारिभिश्च दलस्य प्रत्याशिनां च प्रचारे संलग्नतायाः विषये आयोगे सूचना प्राप्तास्तीत्यतः प्रत्याशिनां प्रचारे संलग्नतां निरोद्धुम् आयोगेन आह्वानं विहितमस्ति। निर्वाचन आयोगस्य केन्द्रीयाचार संहितानुगमन समितौ साम्प्रतं यावत् 85 याचिका निवेदनानि प्राप्तानि सन्ति। तत्र सम्बद्ध राजनीतिकदलेभ्य प्रत्याशिभ्यश्च आयोगेन स्पष्टीकरणं स्पृष्टमस्ति। तेषु 45 संख्यातानां स्पष्टीकरणानां प्रत्युत्तरं प्राप्तमस्तीति निर्वाचन आयोगेन ज्ञापितं वर्तते। आयोगेन निर्वाचनाचार संहितायाः उल्लंघनस्यारोपे राजनीतिकदलेभ्यः, प्रत्याशिभ्यः, सर्वकारीय संस्थाभ्यः, सर्वकारीयतर संस्थाभ्यः, संचारमाध्यमेभ्यः, पत्रकारेभ्यश्च स्पष्टीकरणं स्पृष्टमस्ति। साम्प्रतं यावत् 79 प्रत्याशिभ्यः स्पष्टीकरणं, 6 प्रत्याशिभ्यश्च पुनः स्पष्टीकरणं स्पृष्टमस्तीति आयोगस्य विध्यधिकृतः मोहनराज जोशी असूचयत्। निर्वाचनाचार संहितायाः सम्यक्तया परिपालनेन तदुल्लंघन सम्बद्धानां घटनानां न्यूनीकरणाय आयोगेन प्राप्तेषु याचिका निवेदनेषु आवश्यकानुसन्धानस्य दण्डनस्य च प्रक्रिया अग्रेसारिता अस्ति। पञ्जीभूतानि संचार माध्यमानि तत्र आबद्धान् पत्रकाराश्च प्रेस काउन्सिल इति संस्थायाः माध्यमेन स्पष्टीकरणस्य याचनां प्रभृतीनां कार्याणां कृते पत्रं प्रेषितमस्तीति आयोगस्य विध्यधिकृतः जोशी असूचयत्। नेकपा एमाले दलस्य अध्यक्षः केपी शर्मा ओली निगदति एमाले दलं शान्तिपूर्ण राजनीतेः स्थायित्वस्य पक्षे वर्तते। झापा जनपदस्य दमकस्थाने पूर्वेद्युः आयोजितायां नैर्वाचनिक सभायाम् अध्यक्षः ओली एमाले दलं शान्तिपूर्ण निर्वाचनस्य पक्षे दृढमस्तीति चर्चयन् मतदातृभिः स्वतन्त्ररूपेण मतदानस्य अवसरः प्राप्तव्यः इत्यत्र बलं दत्तवान्। वीरगंज महानगरपालिकाया कतिपय स्थानेष् स्थानीय प्रशासनेन क्रियान्वितां पूर्ण निषेधाज्ञाम् अपाकृत्य निषेधाज्ञा क्रियान्विता वर्तते। शान्ति सुरक्षाया अवस्थायां सुधारस्य पश्चात् क्रियान्वितां पूर्ण निषेधाज्ञाम् अपाकृत्य सुरक्षा संवेदनशीलतां विचार्य अद्य प्रात अष्टवादनं यावत् महानगरपालिकाया कतिपय स्थानेषु स्थानीय प्रशासनेन निषेधाज्ञा क्रियान्विता अस्तीति सूचनां प्रकाश्य सर्वे ज्ञापिताः वर्तन्ते। अत्रान्तरे सर्वदलीयेन सर्वपक्षीयेण च उपवेशेन गत रविवासरे वीरगंज महानगरपालिकायाः श्रीपुरे घटितायाः घटनायाः घटनातः सृष्टस्य घटनाक्रमस्य दोषिणो जनान् स्थानीय प्रशासनेन विधेय परिधौ आनेतुं सहमतिर्धृता अस्ति। प्रमुख जनपदाधिकारिणः भोला दाहालस्य अध्यक्षतायां ह्य जनपद प्रशासन कार्यालये उपविष्टे पीड़ित पक्षतः निवेदनं स्वीकृत्य आवश्यक प्रक्रियाम् अग्रे वर्धयित्वा दोषिणो जनान् विधेय परिधौ आनेतुं धार्मिकाग्रणीभिः व्यक्तिभिः सहजीकरणं विधातुं निर्णीतं वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयेन प्रतिनिधिसभा सदस्यानाम् आसन्न निर्वाचनस्य कार्ये स्वास्थ्यकर्मिणः न परिचालयितुं निर्वाचन आयोगः अनुरुद्धोऽस्ति। निर्वाचनस्य समये सम्भावितां दुर्घटनां दृष्टिगतां विधाय स्वास्थ्यकर्मिणः निर्वाचने न परिचालयितुम् आयोगः अनुरुद्धोऽस्ति इति मन्त्रालयस्य प्रवक्ता डाक्टर प्रकाश बुढाथोकी असूचयत्। मन्त्रालयेन निर्वाचनसमये तत्परेण स्थातुं स्वास्थ्यकर्मिणः अनुरुद्धाः सन्ति।